हेलो।
हेलो, दिनेश भाई।
अबे सलाम नो।
हाँ, मिच नहीं है क्या? बीस तबीस
हाँ,
सुस शिवर विड्रॉ आ रखा ना बारा का।
विड्रॉल आदर गया उड़ा अकाउंट याल कब।
आ मैं मसाले आर्डर रखूँ, बस वो चार
हाँ
बारा विड्रॉ आर्डर रखूँ।
अच्छी
या मैं जब मेरा उम्मीद करता था कि मैं मारा, मैं वो चार
अच्छी
रमो विड्रॉ का आर्डर रख आते ना, मैं मिलने साथ चले मालत
अच्छी
लाइक सीम मिलने ना मेरे रिवर्ल लाइन और डिपॉजिट में तार रखो रात
अच्छी
में विड्रॉ कर
एवले
वो चार
जो मारे
वाउचर
उड़ा
विज ड्रॉ
को
श्योर
एवले आंटनगर
बीस बीस
आंट
आउट
आंटम
वाला
तो यहाँ बांधनगर एलो
नशीला।
एलो एवले आंट मुझे मारे हमारे ना उल्लेख शिविर उड़ा अकाउंट ही करते थे एलो।
अंदाज़ा अंदाज़ा मिले लम वाला शिवर। ओके डिपॉजिट।
डिपॉजिट आंदर रखूँ उड़ा अकाउंट ही मारे ना
ओके
अकाउंट
मैं
इनका
चाहिए
विचिस
आपको
है तलांत माता तलांत
नशीला
माता
नशीला
जा
मेरा
ट्राई
पीस हम और
आलगब आलगब
डिपॉजिट आ रखो।
सुनते वरन डगब बात अलग
अच्छी
सिमेंट में तो वो उससे कोई है ना
ओके गुलाब शिव अलगप्पा
उलेश
में लीला होती है कि
उलेश वाल डगब कहता है सो शून्य मौन जैसे मीटर से तक में और अकाउंट इसे कर अलग वाले ईमेल कर दें बोलो रिवर्स ही आ रहे हैं सिमेलेस कज़ाम वाला बजम दिए बजाम ऊपर पे इस दौर में वो चरवाने
अंदी खलीर नारगना गलत नारगोना गुलाब
ऐसी
शिवर विजड्रो ने आ रखो सुशी
हाँ
विजड्रो अंदाज़ा मिल
उड़ा अकाउंट या विड्रॉल उड़ा अकाउंट या लम इमेज मार ताल को बैंक को चुना मर चाह मार ताला
ओके आई हो तो गुलाब की मम्मा सर गुलाब की सोच मत हो गुलाब
हाँ
चार
मुझे मारे तो
गुलाब की सोच मत
ऐसोस मतों को मर बता लो ये लेती हूँ उड़ा अकाउंट या लास्ट के पास
गुलाब
में
की सोच मत हो एग्जैक्टली विड्रॉ आ रख असो रिवर था रुको मतलब सवर अभी तभी था रख
हाँ हाँ
अदा सोच की सदस्य मत हो विड्रॉ आ रख असो ना
हाँ
मतलब
मान लेते
सोच की लगना विड्रॉ वड़ा निकट बैंक का नंबर आ रहा मैं
हाँ
फोटो का
हाँ हाँ
निकट बैंक ये सारा आ रहा मानना उसमें था चुनका समा चीता माचो
कसम
इंडिया
निसात
गर्मा
ना
मिसरा
कसम
नंबर
निसात ना मिलो
आह
कौट सुम निसात ना बर मिलो नहीं माता नहीं मुकर कुछ
आह रिवर था डर रख गए हैं बजाम के पे नो
ऐ छोड़ी रहा
रिवर
कौन ये सुना
आ
सारे
रहा
बोल रहे हैं
मैं चार रशा रही सोचती थी ना विजिटर आ रखो मुझे
हाँ
विजिटर उस तरह बवोचर ना पर विजिटर आ रखो वो
हाँ
चार मीटर का सोचते मीटर वो चांदू नो वो चार मीटर
अच्छी
में तक कम हो बबीस तबीस शोप वे माचो छापूता नमाज के बाद
ऐसे
वे खजा कर
वो चला मार
अमाउंट
रहा
आत अंदाजा में
ऐसे
तक हूँ सतीश कोट या इसका मतलब लाल अकाउंट ले या तो रूम आलत नो आओ मैं मसलम था डर को बब वो चार पर
ऐसे
आंधी विजिट रोका डर रखो बका मन मार गा चल लाइक वही बबीस तभी शोप में बता बताओ वही वो डेली लाल अकाउंट नो तास्तलालिफो वही वो डरास अकाउंट मेलसा तास्कबाल ग्रेन तमलसो सिगाबा मालत नो नन विजिट रो ये बलो रोनो मिकमतो በፊት ዲፖዚት ስታደርግ የተቀመጠበት አለ አይደል ላይክ ዲፖዚት አድርገህ ቀጥታ ማውጣት አትችልም ሴቲንግ ላይ እንደዛ ነው የሚቀመጠው ያን ብር ሲመለስ 3000 ብሩ መጫወት ትችላለህ እሱ ከዛ ተጫወተህ ስታሸንፍ በሌላ መንገድ ማውጣት ትችላለህ እሱም ሜተዳውን እነግርሃለሁ መጀመሪያ እንድትረዳኝ ብዬ ነው የትኛው 2000 ብር
አካውንት ያልገባም
2300 ያልከኝ እሱ እኮ ሪቨርት የተደረገ እኮ ነው
እኮ ወደ አካውንት ያልገባም እኮ ነው የሚለው በልቼ እኮ ነው
እንዴት ወደ አካውንት ያልገባው ማለት ነው?
ወደ
ዊዝድሮ
ዊዝድሮል
ብለህ
አድርግ
እኮ ተመልሶ ወደ ቤስት ቤት ነው የገባው ነው እኔ መልስ
ኦኬ ስለዚህ ቤስት ቤት ላይ አለ ማለት ነው
ቤስት ቤት ላይ
ባላንስ ላይ
ነበር አንድ ላይ ደምረኸው 3600 ከዛ በኋላ ሞከርክ ነው እኔ እያልኩ ያለሁት
3600 ካሽ አውት አድርጌ እኮ ነው እንትን
ዊዝድሮ
ጨዋታ እየቀረ ዊዝድሮል አደረኩኝ 3600 ለብቻ ማለት ነው
እኔ እኮ ሙሉ ሂስተሪውን እያየሁት ነው አንተን ሙከራ ጭራሽ የሞከርካቸውን ሁላ እያየሁ ላይክ ፌል ያረገብህንም ማለት ነው ሞክረህ ላስት 2 ቀን አሁን የሞከርከው 400 ብር ያስገባኸው አለ
እኔ በጣም የተጠቀምኩበት ነበር ግን እናንተ እንደዚህ ቢያንስ
አዳምጠኛ 400 ብር ዲፖዚት አረግ እያየሁ እኮ ነው እንትን ያልከውም ማለት ነው ከዛ በኋላ 2300 ዊዝድሮ ሞከረህ በቻፓ በሌላ አካውንት መሰለህ ወደ አስቻለው አካውንት ሞከረህ
ሰሚ ማስቻለ ነው አልገባልኝ
አልገባም
እንዲህ በልቼ እኮ ነው ለምን ተመለሰ ነው
ፌል ሲያደርግ ይመለሳል ወደ ቤስት ቤት አካውንት
ለምን
ማለት ነው
አሁን ለምሳሌ እሱ
የእሱ የኛ
የበላቶን
ችግር
በስቲ
አይደለም ችግሩ የንግድ ባንክ ነበር ለዛ ነው ፌል አድርጎ የተመለሰው ለዛ ነው
እሺ እንዴት ነው ማገኘ ማግኘት የሚችለው ነው ብሩን
መኖር የትኛውን ብር
ብሩን የበላቶን ብር ነው ብለሽ
3000 ብር
ሶስት ሺውም
ላይ
ሶስት
አለ
ሺውም ሁለት ሺውስ
የትኛው ሁለት ሺህ
ሁለት ሺህ 300 ትናንት ነው በልቻለሁ
በላ ሆኖ ትኬት
ትኬ በልቼ ባላንስ አሳይቶኝ ማለት ነው ባላንስ ላይ የለም የእናንተ ቤስት ቤት ባላንስ ላይ ኦንላይን አሳይቶኝ ወጪ ሳረገው ኤስኤምኤስ ይመጣላል ብሎ ጠበቁት። ከዛ እንትኑ ላይ ባላንሱ ላይ የሚልም አካውንቴ ላይ አልገባም እኮ ነው። እኔ አካውንቴን ሁሉ መስጠት ይችላሉ ከፈለግ።
በ600 ብር ቆመረ ነበር
አይደል? እሱ ተበልቻለሁ። እሱ ሁለት ቡድን ነው ተበላው።
እሺ፣ ከዛ በፊት 3642 ነበር። 42 ብር ነበር።
አሁን በ600 የቆመርኩት እንዴት መሰለ? እሺ፣ 600 ካሽ አውት አደረኩኝና እሱ ወደ አካውንቴ ሞከርኩ። 600ን ቆመርኩበት። ያ የሁለሹ ደግሞ ማለት ነው ለሽ
ላስት ሁለት ቀን ትልቁ ብር የነበረው አካውንት ላይ 3642 ብር ከ56 ሳንቲም ነበር። አይደለም?
እሺ፣
አይደለም
የሆነ አረለ እኔ ግራ ገባኝ። ለምን
ግራ ገባኝ? እዚህ ጋር እያፈረው ነው። በ200 ብር የመደብኩ አለ
የመደብኩ እየተጫወትኩ ነበረ። በጣም እንደዚህ ከሆነ ያው በቮቸር ይሻላል። ኦንላይን ጥሩ አይደለም ማለት ነው።
ቮቸር ማለት ነው
አይ ዝም ብለህ ሄደህ እዚህ ሾፖች አሉ አይደል? ሱቆች እዛ ሄደህ እነሱን መጠየቅ ይሻላል። ተያያዝ አድርገህ እዛ መቁረጥ ይሻላል እንጂ ኦንላይን ከባድ ነው። ኦንላይን እንደዚህ ማይሰጥ ምናምን ከሆነ ይደብራል።
ኖ አይ ሪስፖንሲብሊ ቼክ እያደረግ
ነው። በደንብ ይኸው ግን እውነት በደንብ ይኸው የኔናውን የነገርኩህን በደንብ ይኸው እውነት በልቼ አልሰጠኝም። ስለዚህ ይቅር በቃ ማለት በሌላ ወረቀት መሞክር ይሻላል እንጂ
በልቼ አልሰጠኝም ማለት ነው።
አልሰጠኝም። ይኸው ልንገር፣ ሪል ሁለት ቦስቲን ተጫውቼ ሁለት ቦስቲን ባላውኝ ሁለት ሺህ 300 በለው
ትኬት ንገረኝና እሱን ደግሞ ቼክ ላድርግልህ። አሁን
እኔ ልንገርህ፣
2000 ብር አለኝ አልሰጣችሁኝ አልክ፣ እንደሌለ አሳየውክ። ከዛ በኋላ ደግሞ ሌላ ችግር ነው
እንደሌለክ ማለት ወጪ አድርግ። የት ሄደህ እሱ አካውንቴ ላይ አልገባም እኮ አባ። የማን ችግር ነው? ወይስ አየር ላይ አለ? ቆይ ይገባል። ጠብቀው።
ይኸውልህ 3000 ብር ፔንዲንግ ላይ ነው አሁን በቮቸር ያዘዝነው ማለት ነው።
እሺ 2000 ብሩ አዛባ
2000 ብሩ ተመልሷል ወደ ቤስት ቤት አካውንት በጊዜው ማለት ነው። ዊዝድሮ ያልክበት ሰዓት ላይ ሪቨርት አድርጎ ተቀምጦልሃል እንደገና። ከዛ በኋላ 1000 ብር የበላኸው የሆነ ትኬት አለ ልንገርህ፣ እሱን ከፈለክ
እሺ። ቆየ ነው
በ500 የበላኸው የቆየ
አይደል? ቆየ ነው ትንሽ ቆይቷል። ትላንት በ500 ነው ግዴ።
ትላንት ዊን ያደር
እሱ ነው አሁን ቀንሶ አስቀምጦት ነው ማለት ነው። እሱ አካውንት ላይ 800 የባየር ሙኒክ ሳይሆን ይሄ አሁን ጨዋታው የማን ሲቲ ናፖሊ ነበር የሚቀረው።
እሺ እሱንም ቼክ አደርግልሃለሁ። ግን እኔ የምነግርህ 317 ብር የበላህበትን ትኬት
እሺ። አሁን ትኬት እሺ እንዴት ነው አይመለስም?
ጉዶ ነው ባል እዛ ላይ
እሺ 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 ቆይ ትንሽ ቆይቶ ያውን
ከዛ በኋላ ነው 3600 ዊዝድሮ ያልከው።
እሺ አሁን እንዴት ነው ማለት ይችላል? ያው እሺ ይቀመጥና ቆምርበት ያለው በቃሽ
እኮ። እሺ እሱን እንዴት ነው
ታገኛለህ? እሺ እንዴት ላድርግ?
መጀመሪያ አካውንት ሂስትሪ ትገባለህ። መጀመሪያ ቮቸር ኮዱን ስለማግኘት ስላለብህ
እሺ፣
አካውንት ሂስትሪ ውስጥ። ከዛ እሱን ከነካ በኋላ ቮቸር ሂስትሪ የሚል ይመጣላል።
እሺ
ቮቸር ዊዝድሮ ስላደረክ በቮቸር ሂስትሪ ውስጥ የሚቀመጥ። ከዛ ቮቸር ሂስትሪን ከነካ በኋላ ቀን ያስመርጣል። ትላንት አይደል ዊዝድሮ ያልከው? ቀኑን ተሞላና ሰርች ወይም ሾው ትለዋለህ።
እሺ
ከዛ ቮቸር ኮዱን ይዞልህ ይመጣል። የስድስት ኮድ ነው፣ ውስጡ አንድ ፊደል አለው። ፔንዲንግ የሚል አለ፣ ብሩንም 3000 የሚል ያስቀምጥላል። እሷም 6-digit ኮድ ኮፒ ታደርጋታለህ።
እሺ
ፊደል ምናምን እንዳትሳሳት። ከዛ ፊደል ምናምን እንዳትሳሳት።
እሺ 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 እሺ።
ከዛ እሱን ኮፒ ካደረግክ በኋላ ዊዝድሮ ስትል የተጠቀምከው ሜተድ በዲፖዚት ትጠቀማለህ። ዲፖዚት ትለዋለህ። ከዛ ኮዱን እንደያዝከው ቮቸር የሚለውን ትመርጣለህ። ዲፖዚት የምታደርግበትን መንገድ ከዛ በኋላ ቦክስ ያመጣላል፣ ኢንሰርት ኮድ የሚል እዛ ላይ ያ ኮፒ ያደረግከውን ኮድ
ፔስት አደረግ፣
3000 ብር ይመለሳል ወደ አካውንት ማለት ነው።
ከዛ መጀመሪያ አካውንት ስትሪ ነው የምገባው።
ቮቸር ኮድ አለማግኘት ማለት ነው። እንትን ካረግ ወይ በቴሌግራም ተነዳለ።